श्रियमुनीन्द्रपद्माक्षीं विष्णुवक्षस्यवस्थिताम् त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी संध्यारात्रिः प्रभा आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च सौम्या सौम्यैर्जगद्रूपै त्वयैतद्देवि पूरितम् आत्मन्या स्वधृते देवि सर्वयज्ञमयं वपुः अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः त्वया देवि परित्यक्तं सकलं भुवनत् तथा गारं सुरद्भृत्य धनादिकं भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् शरीरारोग्यमैश्वर्यम् अपरिपक्षक्षयः सुखम् देवि त्वदृष्टिदृष्टानां पुरुषाणां न दुर्लभम् सर्वलोकानां देवदेवो हरिपिता जगद्व्याप्तं चराचरं मानकोष्ठं तथा कोशं मा गृहं मा परिच्छदं मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनी मा पुत्रान्मा सुहृद्वर्गम् मा पशून्मा विभूषणम् त्यजेथा देवदेवस्य विष्णोर्वक्षस्थलाश्रये सत्येन शौचसत्त्वाभ्याम् तथा शीलादिभिर्गुणैः त्यजन्ते नराः सद्य सन्त्यक्ता ये त्वमामले त्वया विलोपितः सद्य शीलाद्यैः सकलैर्गुणैः कुलैश्वर्यैश्च पूज्यन्ते दूरस्य च विक्रान्तो यस्त्वया देवि वीक्षितः सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे न ते वर्णयितुं शक्या गुणाः पुंसाल्प पराशर उवाच स्तुता सम्यक् प्रहृष्टाः शतक्रतुम् शृण्वतां सर्वदेवानां परितुष्टास्मि देवेश ते हरे वरं वृणीषु उवाच वरदा यदि मे देवि वरार्हो यदि वा एष मेऽस्तु वरः परः यस्तथानेन त्वां स्तोष्य श्रीरूपं त्रिदशश्रेष्ठ न संत्यक्षामि वासव दत्तो वरो मया यस्ते सायं तथा इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् श्रीजगदम्बार्पणमस्तु नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु नारायणवल्लभायै नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु नारायणवल्लभायै नमो
विमले जय जय कमले लक्ष्मी 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 विमले जय जय